सर्वेषां स्वागतं। प्रार्थनया आरम्भं कुर्मः। कोऽपि वक्तुमिच्छति वा? अस्तु, अहं वदामि तर्हि।
प्रयत्नं करोमि वा?
हा, अस्तु भगिनि, करोतु।
शुक्लाम्बरवरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। सरस्वती नमस्तुभ्यं वरदे कामरूपिणी, विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः, गुरुः साक्षात् परं ब्रह्म, तस्मै श्रीगुरवे नमः। ॐ सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा वित्तिषावहैः। ॐ शान्ति शान्ति शान्तिः। नेक्स्ट् वन् आल्सो भगिनि,
केन् यु ट्रै नव? रामो राजमनिः सदा विजयते, रामं रमेशं भजे। रामेणाभिहता निशाचरचमूः, रामाय तस्मै नमः। रामा नास्ति परायणं परतरं, रामस्य दासोऽस्म्यहं। रामे चित्तलयः सदा भवतु मे, भो राम मामुद्धर। अस्मिन् श्लोके सप्तविभक्तयः अपि च सम्बोधनरूपमपि अस्ति। अत्र रामः, रामो राजमणिः सदा विजयते, रामं रमेशं भजे, अहं भजे। रामेण अभिहता निशाचरचमूः, रामाय तस्मै नमः, तस्मै रामाय नमः। रामात् नास्ति, रामान् नास्ति परायणं परतरं, रामस्य दासः अस्मि अहं, दासोऽस्म्यहं। रामे चित्तलया सदा भवतु मे, भो राम सम्बोधन, माम् उद्धर। उत्तमं खलु?
बहु सम्यक् अस्ति श्लोकं,
बहु सम्यक्। अन्य श्लोक अपि अस्ति, अग्रे अग्रे पश्यामः एकमेकम्। अस्तु, सो अत्र सर्वाः विभक्तयः सन्ति अत्र। अपि च अत्र श्लोके, अस्मिन् श्लोके उच्चारणम् एवं, सरस्वती नमस्तुभ्यं, भवती दोषं कृतवती इति न, अहं केवलं वदामि, बोधनार्थं वदामि। नो नो नो, you did correctly bhagini, i'm just pointing out, that's all. Saraswati namastubhyam varade kama rupini vidyarambham karishyami siddhir bhavatu me sada. So atra Sanskrita Bharati, we went for training, so there they said, you know, we, especially this shloka, okay, we are used to saying Saraswati namastubhyam varade kama rupini na, सरस्वती नमस्तुभ्यं वरदे वरदे कामरूपिणी, इट्स् वेरि हार्ड् बट् परन्तु दट्स् हौ वी हेव् टु से। विद्यारम्भं करिष्यामि, सिद्धिर्भवतु मे सदा, एवं।
धन्यवादः।
ऐ नो, ऐ नो, आमां, सम्यक्,
पुटिङ्ग् आल् दीर्घं मेडम्,
दीर्घं सौण्ड्स् वेरि ब्यूटिफुल् खलु? सरस्वती इस् लैक् वि आर् सिङ्गिङ्ग् टु हर्, इस् ब्यूटिफुल्, बट् वेन् वि आर् सेयिङ्ग् द श्लोक, दिस् इस् हौ इट् इस्, सरस्वती नमस्तुभ्यं वरदे कामरूपिणी, इट् डजन्ट् कम् ईज़िलि फर् मी ईदर्, अस्तु, because I'm used to kamarupini, it's beautiful, when you pause for a long time, bahu sundaram asti, shrotum bahu sundaram asti, paranto tat shuddham nasti iti ite uktavanta, astu. So atra vayam shashti vibhakti roopam astu va, ekavaram pashyamaha. अकारान्त पुल्लिङ्गे, अकारान्त नपुंसकलिङ्गे समानरूपम्, कुतः आरभ्य तृतीया विभक्तिरूपम् आरभ्य समानरूपं भवति अकारान्तपुल्लिङ्ग अकारान्त नपुंसकलिङ्गे. सो अतः रामस्य रामयोः रामाणाम् अत्र अत्र नकारः अस्ति, अतः णत्वं भवति. णत्वम् इत्युक्ते अहं लिखामि, सो रेफा अपि च ऋकारः षकारः अस्ति चेत् न भवति, नकारः भवति. परन्तु अन्यनियमाः अपि सन्ति, इत्युक्ते मध्ये कवर्ग पवर्ग अस्ति चेत् णकारः भवतु. अन्य वर्गाः इत्युक्ते क च ट थ च वर्ग ठ वर्ग थ वर्ग अस्ति चेत् णकारः न भवति. एवमेव अन्ये नियमाः अपि सन्ति, परन्तु साधारणनियमः अस्ति रेफा ऋकार षकार अस्ति चेत् नकारस्य स्थाने णकारः भवति इति. सो अत्र तृतीयाविभक्तिरूपे सर्वत्र आगच्छति रामेण गुरुणा एतादृशपदानि. एवमेव षष्टिविभक्ति बहुवचने अपि आगच्छति ज्ञानानामेव, परन्तु वारीणां मधूनां धेनूनां वधूनां मातृणाम् एवमेव. सो अत्र रामस्य प्रथमा विभक्ति एकवचने रामस्य नपुंसकलिङ्गे रामस्य अत्र एव स्य आगच्छति, अस्तु वा, अत्र एव स्य आगच्छति. हरि अस्ति चेत् इकारस्य गुणः ए भवति, ए अथवा य इकारस्य गुणः ए, अतः हरि हरे इ अस्ति चेत् ए भवति. ऊ अस्ति चेत् ओ भवति, गुरु गुरोः एवं भवति. पति इति अन्य बहु विशिष्टशब्दः, पति अपि इकारान्तः, परन्तु पत्युः इति भवति, पत्युः पतेः न भवति, पत्युः मम पत्युः नाम मोहनः एवं पत्युः. परन्तु अग्रे पत्योः पतीनाम् एव, हर्योः हरीनाम् इव एव अस्ति, परन्तु अत्र पत्युः मुख्य अंशः एतत्. अग्रे रमायाः, वयं जानीमः स्त्रीलिङ्ग अस्ति चेत् याः इति भवति, सीतायाः पार्वत्याः आह याः याः आ अस्ति चेत् पूर्ण नाम उक्त्वा अनन्तरं याः, ईकारान्त अस्ति चेत् ई गच्छति याः एवं भवति. रमायाः गौर्याः गौरी गौर्याः अस्तु. इकारः अस्ति चेत् किं भवति, पुल्लिङ्गवत् मतेः भवति, पुल्लिङ्गवत् हरिः हरेः मतिः मतेः, अपि च स्त्रीलिङ्गवत् याः मत्याः इति भवति याः. एवमेव गौरी गौर्याः, अत्र विकल्पः नास्ति, ह्रस्व इकार ह्रस्व उकार विषये एव विकल्पः वर्धते. किमर्थम् इत्युक्ते पुल्लिङ्गे अपि इकार उकार अस्ति, अतः पुल्लिङ्गवत् अपि भवति स्त्रीलिङ्गवत् अपि भवति. एवमेव अत्रापि पुल्लिङ्गवत् धेनोः स्त्रीलिङ्गवत् धेन्वाः, अत्र उकार अस्ति चेत् उकारस्य गुणः ओ भवति, अत्र अन्यसन्धि आगच्छति यण् सन्धि इति, अत्र वा भवति उकारस्य अन्य रूपं वा भवति. मत्याः इकार अस्ति चेत् यकार आगच्छति उकार अस्ति चेत् वकारः आगच्छति. सो अतः धेन् वाः, या न आगच्छति वा आगच्छति. एवमेव वधूः वद्वाः, अत्र विकल्पः नास्ति. किमर्थम् इत्युक्ते दीर्घमस्ति वधूः इति. अग्रे एकः प्रश्नः वा,
एकः प्रश्नः अस्ति. तत्र पति केवलं पति एव,
केवलं पतिः एव, पत्युः इति भवति.
भिन्नम् अस्ति,
भिन्नम् अस्ति.
दट् इस् दि ओन्ली एक्सेप्शन्,
ओन्ली एक्सेप्शन्.
धन्यवादः.
ऐ गेस् दे वाण्ट् टु बि स्पेशल्, न जानामि. पत्नी आल्सो स्पेशल्, आं निश्चयेन. अस्तु, सो अत्र अत्र एव आगच्छति पतिः, पत्युः इति. अस्तु, अग्रे ऋकारान्तशब्दः सर्वत्र समानमेव. पितुः, वयं पूर्वं दृष्टवन्तः खलु कर्ता इति, कर्ता कर्तारौ कर्तारः, परन्तु पिता पितरौ एव. वागर्ताविव सम्पृत्तौ वागर्तप्रतिपत्तये जगतः पितरौ एव, पितरौ प्रथमाविभक्तिरूपं, पिता पितरौ पितरः. परन्तु कर्ता कर्ता कर्तारौ कर्तारः इति भवति, रूपद्वयं भवति अत्र. कर्ता कर्तारौ कर्तारः, परन्तु पिता पितरौ पितरः. एवमेव स्वसा स्वसा स्वसारौ स्वसारः, माता मातरौ एव. सो अत्र प्रथमाविभक्ति द्वितीयाविभक्तिरूपे एवमेवम् अस्ति. कर्तारौ स्वसारौ स्वसारं कर्तारम्, अग्रे तादृशभेदः नास्ति. तृतीयाविभक्ति आरभ्य समानमेव, सर्वत्र समानमेव. परन्तु पतिः इति अस्ति चेत् षष्टिविभक्तिरूपे एवम् अस्ति पत्युः. अत्र कर्ता अस्ति चेत् कर्तुः कर्त्रोः कर्तॄणाम् इति, भेदः नास्ति. अस्तु, अग्रे तस्य तयोः तेषां, शाम् इति आगच्छति सर्वत्र, शाम् शाम् शाम्, केवलम् आकारान्त अस्ति चेत् साम्. सो अत्र सा इति अस्ति खलु, अतः तस्याः तयोः तासाम्, का कस्याः कयोः कासाम्, एवमेव सर्वस्याः सर्वयोः सर्वासाम् आसाम् अस्याः. इदानीम् एतत् मास्तु, अग्रे पठामः. अस्तु, एवमेव भवति. भवान् भवत् शब्दः, भवतः भवतोः भवताम्, भवती शब्दः गौरी इव, गौर्याः गौर्योः गौरीणाम्, अत्र भवत्याः भवत्योः भवतीनाम् इति भवति. मम आवयोः अस्माकं, मम आवयोः अस्माकं. मम इति पदस्य अन्यविकल्पः अस्ति मे, मम मे आवयोः नौ, अस्माकं नः. भूर्भुवस्सुवः इति गायत्रीमन्त्रम् अस्ति खलु, तत्र भूर्भुवस्सुवः तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्. नः इत्युक्ते अस्माकं, धियो यो नः प्रचोदयात्, अस्माकं बुद्धिः ददातु इति, प्रचोदयात् इति. अस्तु, प्रश्नः अस्ति वा रूपविषये? अस्तु, नपुंसकलिङ्गे अकारान्तपुल्लिङ्गे ज्ञानस्य ज्ञानयोः ज्ञानानां, वारि इति अस्ति अस्ति वारिणः भिन्नरूपं, नकारः आगच्छति. वारिणः वारिणोः वारीणां वारिणः, अत्रापि नोः परन्तु वारीणां सर्वत्र नाम्नाम् आगच्छति. एतत् समानम् अस्ति. अत्रापि मधुनः मधुनोः मधुना ओः नोः इति आगच्छति, परन्तु नकारः अस्ति, नकारः. तस्य तयोः तेषां कस्य कयोः केषाम् एतानि रूपाणि पुल्लिङ्गवत् एव भवति. अस्तु, वयं गतवर्गे एतत् कृतवन्तः, गतवर्गे एतत् कृतवन्तः, ततः पूर्वम् एतत् अपि कृतवन्तः. प्रश्नः अस्ति वा, क्रमः कः अत्र? प्रथमं क्रियापदमस्ति चेत् विभजनं करणीयं खलु. उदाहरणार्थम् अहं किमपि स्वीकरोमि, पीतवान् इति अस्ति चेत् सोपानं किं, प्रथमसोपानं पीतवान् इति अस्ति, अतः कृतवान्, कृतवान् पानं कृतवान्. द्वितीयसोपानं कृतवान् त्यजामः. अनन्तरं किं कृतवान्, गणनं परिशीलितवान्. कस्य अनन्तरं गणनं परिशीलितवान्, पानस्य, पानस्य अनन्तरम् एवमेव आगच्छति. प्रश्नः अस्ति वा, न इति मन्ये खलु. गृहपाठं कृतवन्तः वा, अभ्यासदर्शिनीतः अहं किमपि प्रेषितवती
क्षम्यतां भगिनि,
न
करोमि.
अस्तु, अग्रे गच्छामः वा, किं वदन्ति, अग्रे गच्छामः वा, एतत् विषये पुनः अभ्यासं करणीयं वा, एतस्य विषये वदन्तु कृपया, नो चेत् अग्रे गच्छामः. आमाम्, अस्तु, अग्रे गच्छामः तर्हि. अस्तु, उत्तमम्. अस्तु, अत्र अध्यापकः कस्य, कस्याः, केषां, कासां प्रतिभां दृष्टवान् न दृष्टवान् इति अधः निर्दिष्टम् अस्ति, तदाधारेण वाक्यानि रचयत. सो अत्र मुख्य अंशः अस्ति सर्वनामपदविषये, सः, एषः इति. प्रतिभाम् इति अस्ति चेत् सः अथवा सा किं कर्तुं शक्नोति इति, सामर्थ्यं किम् इत्युक्ते सः गातुं शक्नोति इत्युक्ते प्रतिभा इत्युक्ते टेलेण्ट्, टेलेण्ट् इति वदामः, इत्युक्ते सः गातुं शक्नोति, तस्य गानं, तस्य प्रतिभा, सः पाकं कर्तुं शक्नोति, प्रतिभा, तस्य प्रतिभा अस्ति पाककरणम् इति. अस्तु, अग्रे कः आरम्भं करोति, सन्ध्या भगिनी. सो अत्र उदाहरणम् अन्यपुटे अस्ति. अध्यापकः तस्य प्रतिभां दृष्टवान्, एतस्य प्रतिभां न दृष्टवान् इति अस्ति.
अध्यापकः तस्याः प्रतिभां दृष्टवान्, एतस्याः प्रतिभां न दृष्टवान्.
एतस्याः प्रतिभां न दृष्टवान्. भगिनि इदानीं त्रीणि रूपाणि वदतु, तस्याः,
तयोः, तासाम्.
सम्यक्, तस्याः, तयोः, तासाम्. एषा,
एतस्य, एतयोः, एतासाम्.
पुनः वदतु, सो अत्र सा अस्ति चेत् तस्याः खलु, इति उक्तवती भवति तस्याः एषा अस्ति चेत् सम्यक् एतस्याः एतयोः एतासां केवलम् ए इति योजनीयं तावदेव अस्तु केतकी भगिनी अग्रे
आं भगिनि तृतीय रैट् भगिनि
आम् आम्
अध्यापकः भवतः प्रतिभां दृष्टवान् भवत्याः प्रतिभा न दृष्टवान्
न दृष्टवान् अस्तु त्रीणि रूपाणि वदतु भवतः
भवतः भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः भवता
सो अत्र
भगिनि
षष्टिविभक्ति एव वदतु अस्तु
भवतः भवतौ भवतां
भवतः भवतोः भवतोः भवताम् अस्तु भवती
भवती भवतोः भवत्सु
न भवत्याः
भवत्याः भवत्योः भवतीनां
सम्यक् सम्यक् सागरी भगिनी अग्रे
अध्यापकः एतासां प्रतिभां दृष्टवान्
सम्यक् एतासां सम्यक्
एतेषां प्रतिभां न दृष्टवान्
न दृष्टवान् अस्तु त्रीणि रूपाणि कानि
Can't hear Sagari. Can you speak louder, Sagari?
Etasyah? Etasyah? Etayoho?
Etayoho?
Etasyah. एतस्याः एतयोः एतासाम् अवगच्छति वा भगिनि अस्तु सम्यक् इदानीम् एतेषु इति एतेषु इति उक्तवती त्रीणि रूपाणि एतेषु अस्तु अस्तु चिन्ता मास्तु एतेषु इति अस्ति एतेषाम् इति अस्ति चेत् एतस्य एतयोः एतेषां तस्य तयोः तेषाम् केवलम् ए योजनीयम् एतस्य एतयोः एतेषाम् अस्तु अग्रे श्रीनिवास महोदय
भगिनी वाट् इस् एते इस् इट् प्लूरल्
आम्
सो प्लूरल् आफ़् वाट् इस् द सिङ्गुलर् आफ़् एते
एषः एषः एतौ एते
ओके
सो अत्र एताः इति अस्ति चेत् एषा एतौ एताः सोरि एषा एते एताः सा तेताः एषा एते एताः
एषः
एतौ एते
एतौ एते ओके
इदानीं श्रीनिवासमहोदय
अध्यापकः तेषां प्रतिभां दृष्टवान् तासां प्रतिभां न दृष्टवान्
सम्यक् त्रीणि रूपाणि अभ्यासार्थमेव अहं पृच्छामि पुनः पुनः क्षम्यताम्
तस्य तयोः तेषां
तस्य तयोः
तस्य तयोः तेषां तस्याः तयोः तासां
तयोः इति समानं भवति अत्र अत्र तेषाम् अत्र तासां तस्य तस्याः अस्तु अग्रे सविता भगिनी
अहम् एन् वयं भगिनि
अहं वयं मम इति भवति मम आवयोः अस्माकम् अथवा मम अथवा मे अपि शक्नुमः आवयोः नौ अस्माकं नः मम मे आवयोः अस्माकं नः
मम आवयोः अस्माकं
मम आवयोः अस्माकम्
अस्माकम्
अध्यापकः
शो द सेण्टेन्स् आल्सो द सेण्टेन्स् इन् दट् विभक्ति वल्लरि अध्यापकः
अस्तु भगिनि वदतु
अध्यापकः मम प्रतिभां दृष्टवान्
अध्यापकः
अतः मम
मम प्रतिभां
मम
प्रतिभां दृष्टवान् अध्यापकः अस्माकं
प्रतिभा न दृष्टवान्
अस्माकं प्रतिभां न दृष्टवान्
न दृष्टवान् मम आवयोः
अस्माकं मम आवयोः अस्माकम्
अस्माकं
मम आवयोः अस्माकं मम आवयोः अस्माकम् अत्र मम वयं जानीमः खलु मम पुस्तकं मम नाम सर्वं सो अत्र अस्माकम् अहं कथं स्मरामि इत्युक्ते यदा वयं मन्दिरे वा अथवा कुत्रापि पूजां करणसमये अस्माकं कुटुम्बानाम् इति सङ्कल्पं कुर्मः खलु सो अत्र अस्माकम् एव आगच्छति अस्माकं सह कुटुम्बानां क्षेमस्थैर्यवीर्यविजयायुरारोह्य तं पूजां करोमि इति आचार्यमुखेन इति एव वदति अस्तु अस्माकम् एवम् अस्ति अस्तु उमाकृष्णन् भगिनि
अध्यापकः
भवती एवं करोतु उषा भगिनी एतत् करोतु भवत्याः इति बहुवचनरूपम् भवति सम्यक्
अध्यापकः भवत्याः
सम्यक्
प्रतिभां
दृष्टवान्
अध्यापकः भवतीनां प्रतिभां न दृष्टवान्
सम्यक् भवतीनां प्रतिभां न दृष्टवान् सम्यक्
भवत्योः
सम्यक् भवत्याः भवत्योः भवतीनां सम्यक् सम्यक् उषा भगिनि
अध्यापकः भवतः अध्यापकः भवतः अध्यापकः भवन्तः प्रतिभां दृष्टवान्
न अत्र भवन्तः न आगच्छति भवान् इति प्रथमाविभक्ति एकवचनं भवान् इति अस्ति चेत् षष्ठीविभक्ति कथं भवति
भवान्
भवान् इति प्रथमाविभक्तिरूपं भवान् एकवचनं भवन्तः बहुवचनं भवान् भवन्तौ भवन्तः प्रथमाविभक्तिरूपम्
ओके
इदानीं षष्टिविभक्ति कथं भवति
भवत्या भवान् भवत्या भवन्तः
भवन्तः इस् बहुवचनं फ प्रथमाविभक्ति हौ डु वि आस्क् भवत् नाम
षष्ठी
भवत्याः पुरतः एकः पुरुषः अस्ति तस्य नाम भवती कथं पृच्छति
भवतः भवतः प्रति अध्यापकः भवतः प्रतिभां दृष्टवान्
सो अत्र द्विवचनम् ओहो इति भवति भवतो
भवताम्
भवतां सम्यक् भगिनि भवतां सम्यक् भवतां प्रतिभां न दृष्टवान् अध्यापकः न दृष्टवान् इति अस्तु अन्य कोऽपि अस्ति वा न अस्तु टेलेण्ट् वाट् ही इस् केपेबल् आफ् basically
he noticed my talent he doesn't notice that person's talent
so this whole exercise is for sarvanama padam that's it tasya tayoho tesham tasyah tayoho tasam kasyah kayoho kasam bhavan iti asti bhavatah bhavatoho bhavatam भवती अस्ति चेत् भवत्याः भवत्योः भवतीनाम् एतादृशं मम आवयोः अस्माकं तावदेव ओके ओन्ली सो मेनि काम्बिनेशन् अस्तु अग्रे अधो निर्दिष्टं कोष्टकं पठत वयं जानीमः एव खलु हरेः हर्योः हरीणाम् गुरु अस्ति चेत् गुरोः गुर्वोः भवति गुरूणां धेनोः सो अत्र विकल्पद्वयं भवति खलु विकल्पद्वयम् हरिः हर्योः यकारः आगच्छति हरिः हर्योः हरीणाम् पुनः वदामि हर्योः मतिः मतिः इति अस्ति चेत् पुल्लिङ्गवत् मतेः मत्योः समानं हर्योः हरीणां मतीनाम् उकार अस्ति चेत् पुल्लिङ्गवत् धेनोः गुरोः धेनोः गुर्वोः धेन्वोः धेनूनां गुरूणां गौर्याः गौर्योः पत्योः एवमेव अस्ति अग्रिमम् एतादृशं पदं स्वीकृत्य अभ्यासः मधुनः मधुनोः मधूनां नकारः भवति नपुंसकलिङ्गपदम् अस्ति चेत् अस्तु अन्य कोऽपि आगच्छति वा नूतन आम् चिन्ता मास्तु महोदय अन्य कोऽपि अस्ति वा अस्तु सन्ध्या भगिनि सो अत्र केवलं रूपं वक्तव्यं कविः इकारान्त पुल्लिङ्गपदं कवेः कथम् आगच्छति कवेः कव्योः कवीनां सो किमर्थं यकारः आगच्छति इकारः अस्ति चेत् यकारः आगच्छति कविः कव्योः कवीनां इकारः अस्ति चेत् एकारः भवति अग्रे वयं यदा सन्धिविषये पश्यामः अत्र एतादृशज्ञानं सुलभः भवति सुलभाय भवति पठनार्थम् इकारः अस्ति चेत् ए भवति इकारः अस्ति चेत् यकारः अपि भवति उकारः अस्ति चेत् ओकारः भवति अपि च वकारः आगच्छति अस्तु अग्रे कवेः कव्योः कवीनाम् अस्तु धृतिः इति वदतु भगिनि
धृतेः धृत्योः धृतीनां
धृतीनाम् अस्तु धृतेः इति पुल्लिङ्गवत् स्त्रीलिङ्गवत् कथं भवति भवति परन्तु अन्य रूपमपि भवति धृत्याः अपि भवति धृतेः अथवा धृत्याः गौर्याः सम्यक् धृत्याः अपि भवति विकल्पद्वयम् आप्शन्स् टु आप्शन्स् अद विकल्पद्वयं भवति परन्तु बहुवचने तावत् नास्ति धृतीनाम् अत्र सर्वत्र दीर्घं भवति धृतीनां ह्रस्वः अस्ति परन्तु दीर्घं भवति धृतीनाम् इति धृतीनां धन्यवादः केतकी भगिनि
तरोः तरुणां
तरुणां तरोः तत्र तर्वोः इति भवति तर्वोः
उकार अस्ति च ओकार भवति न
ओकार भवति आमां तरोः अत्र ओ भवति तरोः
तरोः तरुणां
तरोः तर्वोः तरुणां
ओके तरोः तर्वोः तरुणां
तरुणाम् इति भवति सो अत्र गुरुवोः गुरूणां दीर्घं भवति सर्वत्र दीर्घं
गुरूणां
मूलपदं ह्रस्व अस्ति चेदपि गुरूणाम् इति भवति उत्तमं सागरि भगिनि अत्र दाता इति ऋकारान्तशब्दः पितावत् सम्यक्
धातुः
धातुः
धात्रोः
दातॄणां सम्यक् दातॄणां सम्यक् अस्तु श्रीनिवास महोदय दुहिता एतदपि ऋकारान्तशब्दः
आम्
आम् दात्रोः
धन्यवादः भगिनि
दात्रोः सम्यक् धातुः दात्रोः दातॄणां दीर्घ समानमेव समानमेव दुहिता अपि स्त्री ऋकारान्तपदमेव दुहिता
दुहितुः
आम् दुहितॄणां सम्यक् दुहितॄणाम् अस्तु रज्जुः स्त्रीलिङ्गपदम् सविता भगिनी
रज्वाः
रज्वोः
रजूनां
सम्यक् पुल्लिङ्गवत् कथं भवति उकारान्तपदम्
रजोः रजोः
सम्यक् सम्यक् रजोः उत्तमं रजोः अथवा रज्वाः रज्वोः रजूना रज्वाः अथवा रज्जोः रज्जोः रज्वोः रजूनाम् अथवा रज्वाः रज्वोः रजूना अत्र विकल्पः नास्ति समानमेव गुर्वोः रज्वोः धेन्वोः धेन्वाः धेन्वोः धेनूनाम् रज्जोः धेन्वोः धेनूनाम् अस्तु अग्रे अवधिः पुल्लिङ्गशब्दः उमाकृष्णन् भगिनी
अवधयोः नो
इकारः पुल्लिङ्ग विकल्पः नास्ति एकमेव रूपम्
ओके
अवधेः
अवधेः
अवधेः अवधयोः
अवधीनाम्
अवधीनाम् अवधेः अवध्योः हर्योः इति अस्ति खलु अवध्योः अवधिः इत्युक्ते पीरियड् दट् पीरियड्
अवधेः अवधयोः
अवध्योः
अवध्योः
अवधीना सम्यक् अवधेः अवध्योः अवधीना रज्जु मीन्स् रोप् आर् स्ट्रिङ्ग् अवध्योः
धन्यवादः
अस्तु अस्तु अग्रे उषा भगिनी
शलादुः शलाटुः इस् इट् शलाटुः पुंलिङ्गं शला
इस् लैक् गुरुः
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 या गुरु गुरु
सो इस् शलाटुः शलाटोः
सम्यक्
शलाटोः शलाटोः
ओके सो इफ् दट् द्विवचनम् इस् डिफिकल्ट् सो वि डोण्ट् नीड् टु डु द्विवचनं एकवचनम् बहुवचनम्
शलाटोः शलाटूनां
शलाटूनां गो टु गीता सोपानं प्रथमभागः द्विवचनमपि आवश्यकम् इदानीम् इफ् इट् इस् डिफिकल्ट् यु डोण्ट् हाव् टु
ओके
शलाटोः शलाटूनां डो टु वाण्ट् टु डु यु डु
ओके थेङ्क् यु भगिनि
अस्तु अस्तु
Nagini, what is the meaning of shalatu?
Shalatu is like a kind of nut, iti chintyami bhagini.
Oh.
Something that we eat.
Oh, that we eat. Okay, okay.
Yeah.
Not the bolted nut.
No, no, no. Shalatu is something that we eat. Astu, agree. And Parameshwar Mahodaya? Asti va?
How do we write the half the for the shalatu, for the second case?
Shalat voho. गुर्वोः खलु शलाट् वोः शलाट् वोः एतदपि सम्यगेव शलाट् वोः अस्तु प्रशस्तिः परमेश्वरमहोदय अस्ति वा नास्ति अस्तु सन्ध्या भगिनि अस्तु अस्तु उत्तम उत्तम प्रशस्तीनां प्रशस्त्याः प्रशस्तीनां प्रशस्तिः प्रशस्त्याः प्रशस्तीनां सम्यक् अथवा प्रशस्तेः अपि अस्ति प्रशस्तेः अपि अस्ति अस्तु निघण्टुः सन्ध्या भगिनी
निघण्टोः निघण्टवोः निघण्टूनां
सम्यक् सम्यक् निघण्टु इत्युक्ते इट्स् अ कलेक्षन् आफ् words iti.
Is it
dictionary? Dictionary. Shabdah, kosha, kosha, shabda kosha, nighantuhu, samyak.
Dhanyavada.
Dhanyavada, mahodaya api. Dhanyavada. Astu, agre, and ketaki bagini. Brata.
Bratara, na, bratayaha.
Bratuhu.
Bratuh.
Because brata is a rikaranta padam. It's a rikaranta padam. So it's not akaranta.
Okay. So yad brataru, brataru.
Bratuhu, bratuhu.
Okay, bratuhu, bratanam.
Bratuhu, bratrunam. Rikaranta kalu, bratrunam.
Bratrunam.
आगच्छति आगच्छति तृणां
एवं रामाणां
भ्रातॄणां
भ्रातॄणां
भ्रातुः भ्रात्रोः भ्रातॄणाम् इति भवति अस्तु अग्रे आवरणे दत्तानां पदानां षष्ट्यन्तम् एकवचनरूपेण रिक्तस्थलं पूरयत् वयम् एकवचनं बहुवचनमपि कुर्मः अभ्यासं भवति उदाहरणं मुनिः मुनेः आश्रमः श्रीरङ्गपुरे अस्ति मुनेः मुन्योः मुनीनां मुनेः मुन्योः मुनीना एवम् अस्तु सागरी भगिनी
आं भगिनि रघोः पिता आगतः रघूनां
रघूनां पिता आगतः सम्यक् आगतः इस् अ त प्रत्यय त How do we change it to tavatu pratyaya?
Agatavan.
Agatavan. Agatavan, sadharnataya, kartari prayoga. Agataha, sadharnataya, karmani prayoga. Parantu, ta pratyaya can be used as a visheshanam. ओके एनिवे अग्रे सम्यक्तया पठामः इदानीं न अस्तु श्रीनिवास महोदय नास्ति सविता भगिनी
आं भगिनी वक्ता सम्माननं कृतं
न वक्ता इति ऋकारान्तपदम् एवमेव या अपि ऋकारान्तपदम्
ओके ओके वक्तुः वक्तुः सम्माननं कृतं
सम्यक्
वक्तुः वक्त्रोः वक्तॄणां
वक्तॄणां वक्तुः वक्त्रोः वक्तॄणां सम्माननं कृतं
कृतं
कृतम् अस्तु उत्तमम् उमाकृष्णन् भगिनी
आं भगिनि याताः सहोदरः पलायितः
पलायितः मीन्स् दे रान् अवे
ओके यातुः सहोदरः पलायितः यातॄणां यातॄणां
सम्यक् यातॄणां
सहोदरः
पलाय
याता इस् मीनिङ्ग्
सिस्टर् इन् ला ऐ थिङ्क्
ओके
ब्रदर्स् वैफ् ऐ थिङ्क्
धन्यवादः
अस्तु अग्रे मधु उषा भगिनी मधु इति नपुंसकलिङ्गपदम् उषा भगिनी अस्ति वा अस्तु अग्रे परमेश्वर महोदय सो अत्र नपुंसकलिङ्ग अस्ति चेत् नकारः आगच्छति न अहं प्रदर्शयामि मधुनः मधुनः मधुनोः मधुना नपुंसकलिङ्गम् अस्ति चेत् नकारः आगच्छति मधुनः मधुना नकारः नपुंसकलिङ्ग सो सम्बन्धं यु कीप् सम्बन्धं लैक् दट् इफ् इट् इस् नपुंसकलिङ्गम् इ स्टार्ट्स् वित् न सो यु पुट् अ न दर् मधुनः मधुनोः मधुना सो अत्र मधुनः मधुना वाक्यं कथं भवति मधुनः माधुर्यम् अवर्णनीयम् इत्युक्ते अर्थः कः मधुनः माधुर्यम् अवर्णनीयम् अन्डिस्क्रैबल् सम्यक् वर्णनं कर्तुं न शक्नुमः अनुभवामः चेत् एव अवगन्तुं शक्नुमः वर्णनं श्रुत्वा एवमस्ति इति न शक्नुमः वयम् अस्तु सम्यक् प्रकृतिः सन्ध्या भगिनि प्रकृतिः अन्य कोऽपि अस्ति वा न अस्तु प्रकृतिः
प्रकृतिः स्त्रीलिङ्ग वा भगिनि
स्त्रीलिङ्ग स्त्रीलिङ्ग स्त्रीलिङ्ग
प्रकृतेः प्रकृत्योः प्रकृतीनां
प्रकृत्योः सम्यक् प्रकृतेः प्रकृत्योः प्रकृतीनाम् अत्र विकल्पद्वयम् अस्ति खलु द्वितीयविकल्पः कः
आं भगिनि प्रकृत्याः
प्रकृत्याः
प्रकृतीनां
प्रकृत्याः प्रकृतेः विकल्पद्वयम् अस्ति सम्यक् अस्तु
प्रकृतेः आराधकाः भवेम
प्रकृति इत्युक्ते
नेचर्
किं नेचर् सम्यक् सम्यक् नेचर् सम्यक् प्रकृतिः अस्तु अग्रे केतकि भगिनी कविः
कवयः कवीनां
कवेः
कवयोः
कवयोः कवीनाम् अस्तु कवेः परिचयः कृतः परिचयः इत्युक्ते इन्ट्रडक्षन् आफ् द कवि इस् डन् कृतः वास् डन् इति अस्तु अग्रे सागरी भगिनी रज्जुः स्त्रीलिङ्गपदम् रज्वोः लैक् रज्वोः इति मध्ये आगच्छति रज्जोः सम्यक् रज्जोः रज्जूनां रज्जोः रज्वोः रज्जूनाम् अस्तु अन्य विकल्प अस्ति वा रज्वाः सम्यक् रज्वाः रज्जोः विकल्पद्वयम् अस्ति रज्वोः रज्जूनां सम्यक् रज्जूनां दीर्घं भवान् जानातु दीर्घं भवान् जानातु अस्तु दैर्घ्यं क्षम्यतां दैर्घ्यं भवान् जानातु कियत् दीर्घम् अस्ति इति जानातु रज्जोः दैर्घ्यं जानातु अस्तु सविता
भगिनी
दैर्घ्यं मीन्स् लेन्त् दैर्घ्यम् इस् लेन्त् दीर्घम् इस् लाङ्ग्
दैर्घ्यं
दीर्घम् अस्ति मार्गः दीर्घः अस्ति रज्जुः दीर्घः अस्ति
द्वितीयविभक्ति दीर्घः
न न न लेन्त् वर्सेस् लाङ्ग् लाङ्ग् इति दीर्घः
लेन्त् दैर्घ्यं इस् लेन्त्
You should know the length of the janatu, know, figure it out like that.
Should know, okay.
Not should know, just know. Because if you add should, then it becomes nyatavyam like that. Okay. Or
does it mean find out?
Find out.
Of the group.
So this is like an order, a lot lakara.
धन्यवादः
अस्तु अग्रे सविता भगिनी अभवत्
वा
अस्तु इदानीमेव पृष्टवती नाम अस्तु
रूढिः उल्लङ्घनं खेदाय भवेत् रूढिः
रूढिः इति स्त्रीलिङ्ग इति अहं चिन्तयामि अहं पश्यामि एकनिमिषं
रूढ्याः खेदाय भवेत् वाट् इस् रूढिः भवनी भगिनि
रूढिः मीन्स् अवर् कस्टम् यु नो लैक् अवर् 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 कल्चर्
रूढिवाद् कन्सर्वेटिव् रूढिवाद्
ओ एवं वा ओ रूढिवाद्
इन् हिन्दी देशे रूढिवाद् आचार
What does that mean, Rudivada?
Rudivada is very conservative something. Like
conservative, that. Yes.
Yeah. Conservative.
Sticking to their own, yeah, conservative. Oh. Rudivada.
Or could it mean tradition?
Traditional. Very traditional, like that.
Very traditional. Who are not flexible. Yeah.
Oh, I see.
Like violating traditions.
Oh, yes, violating traditions. Samyak.
Khedaya means to hurt.
Yes. Kheda means
regret.
What? Kheda means what?
Becomes
a regret.
Regret maybe. अस्तु अग्रे वदतु रूढिः
रूढिः रूढ्योः रूढिः रूढ्याः रूढ्योः रूढीनां
रूढ्याः रूढ्योः रूढीनां
रूढीनां
रूढ्याः
रूढ्याः उल्लङ्घनं खेदाय भवेत्
सो अत्र रूढ्याः इस् लैक् स्त्रीलिङ्ग
स्त्रीलिङ्ग
सो लैक् पुल्लिङ्गवत् कथं भवति
रूढेः उल्लङ्घनं खेदाय भवेत्
सम्यक् 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 सम्यक्
भगिनि रूढ्याः कथं
सो यु केन् डू लैक् दिस् रूढ्याः आर्
रूढेः
रूढ्याः लैक् दिस् So it can either go under or you write the hal symbol and then go. Hal chinnam likitva tasya parshve likatu no chet da iti likitva adaha ya yojayatu.
Bhagini, most publications, you can all write joint, right?
What's
best for us to practice as we go forward?
Yeah, I think joint is better, Bhagini. Arambastare evam likato. Paranto agre evam eva samyak. Pragati stare evam eva samyak. Astu, agre? Agre ka vadati उमा कृष्णं भगिनि
जन्तुः दिस् इस् पुल्लिङ्गपदं वा
जन्तुः आं पुल्लिङ्गपदं
जन्तोः जन्तवोः जन्तूनां
सम्यक् जन्तूनां जन्तोः जन्तवोः जन्तूनां सम्यक् सम्यक् भगिनि जन्तूनां नाशः करणीयः किमर्थं करणीयः मेबि द जन्तु इत्युक्ते किं
जन्तु एनिमल्स्
या इट् हेस् टु बि संथिङ्ग् एल्स् भगिनि नो
ऐ थिङ्क्
नाशः न करणीयः प्राबब्लि नाशः न करणीयः ऐ थिङ्क् दट् इस् हौ इट् शुड् बि रिटन् जन्तु इत्युक्ते साधारणतया लैक् द क्रीचर्स् इति खलु द बीयिङ्ग्स् इति unless like how somebody said cockroach worms schemes like that you know the ones that we don't need insects even that I don't think they will say like this kalo this is not our culture asmakam samskrityam tavat na etadasha chintanam nasti
mudran doshanam asti
tata eva aham chintayami nashah na karaniyah एव अस्तु उषा भगिनि
अभिरुचिः अभिरुचिः वाट् इस् दिस् इस् इट्
अभिरुचिः इत्युक्ते अटाच्मेण्ट् रुचिः वयं जानीमः खलु राग अभिरुचिः अहं चिन्तयामि अटाच्मेण्ट् इति लैक् अभि लैक् यु नो getting attached to something
is it taste
taste and also interest is also there you know like
right interest
samskritya mama abhi ruchihi asti I am attached to it I am interested in it
इति अभिरुचिः अभिरुचेः अभिरुचेः
अतः विकल्पद्वयं भवति स्त्रीलिङ्गपदम्
अभिरुचेः This, that is pumlingam, right? Abhiruchehe.
Abhiruchehe, pullingavad.
Abhiruchyaha.
Samyak, abhiruchyaha.
Abhiruchyaha, abhiruchyoho, abhiruchinam.
Samyak, abhiruchinam. Samyak. After. Agrimam abhyasam. Avarane dattanam padanam shashtyanta bahu vachanantam. बहुवचनान्तेन रूपेण रिक्तस्थानानि पूरयत
भगिनी पेज् इस् दिस्
पेज् 54 उदाहरणं सः राशीनां गणनं कृतवान् राशीनां राशिः इत्युक्ते अ कलेक्षन् आफ् समथिङ्ग् राशीनां गणनं कृतवान् ज्योतिष न न अहं चिन्तयामि राशि इत्युक्ते कुम्भराशि वृषभराशि तावत् नास्ति इट्स् नाट् दट् राशि इत्युक्ते राशि इत्युक्ते अहं चिन्तयामि कलेक्षन् आफ् आफ् समथिङ्ग् लैक् इन् इफ् समथिङ्ग् इस् इन् इन् अ रो अथवा अस्ति चेत् इति अहं
चिन्तयामि
रोस् अण्ड् कालम्स् लैक् दट् नो सो रोस् अण्ड् कालम्स्
कौण्टिङ्ग्
counting so we have a collection of something there we say rashi hi asti like that astu rashi itte like a collection of something then you are counting iti arte asti राशीनां गणनां कृतवान् गणनां गणना मीन्स् कौण्टिङ्ग् लैक् गणयति गणितवान् सो दिस् इस् अ वेरि क्लासिक् एक्साम्पल् गणितवान् अण्ड् देन् बि स्प्लिट् इट् एस् गणनां कृतवान् गणनायाः अनन्तरं किमपि कृतवान् संथिङ्ग् गणितवान् देन् बिकेम् गणनां कृतवान् देन् गणनायाः अनन्तरं राशीनां गणनायाः अनन्तरं सः गतवान् अस्तु परमेश्वर महोदय नलिनी
नलिनी प्रकृति
प्रतिकृति
सोरि प्रतिकृति प्रतिकृत्यो प्रतिकृत्यानां
प्रतिकृतेः अथवा प्रतिकृत्याः प्रतिकृतीनां सो अत्र पश्यतु इकारान्तशब्दः अस्ति चेत् कथं भवति कृतेः कृत्योः कृतीनां प्रतिकृति इति स्त्रीलिङ्गं वा पुल्लिङ्गं वा स्त्रीलिङ्गम् अतः विकल्पद्वयम् अस्ति स्त्रीलिङ्ग इति विकल्पद्वयम् अस्ति एकम् अस्ति प्रतिकृतेः अन्यत् एकमस्ति प्रतिकृत्याः प्रतिकृत्याः प्रतिकृत्योः प्रतिकृतीनां प्रतिकृतेः प्रतिकृत्योः प्रतिकृतीनां अस्मिन् सन्दर्भे प्रतिकृतीनां वितरणं कृतवती. वितरणम् इत्युक्ते किं?
डिस्ट्रिब्यूशन्.
सो अत्र प्रतिकृतिः इत्युक्ते लैक् फोटो कापीस् आर् संथिङ्ग् लैक् दट्. प्रतिकृतिः वितरणं कृतवती. प्रतिकृतेः प्रतिकृत्याः प्रतिकृतीनां वितरणं कृतवती. प्रतिकृतीनां वितरणं कृतवती. अस्तु, सन्ध्या भगिनी.
छदिः यदि स्त्रीलिङ्गम् अस्ति चेत् छद्याः छद्योः छदीनां.
सम्यक्, छद्याः छद्योः छदीनाम्. अस्तु, सम्यक्. छदि इत्युक्ते रूफ्.
ओके,
रूफ्. ओके, वदतु इदानीं वाक्यं वदतु.
छदेः उपरि शुष्ककाष्ठानि सन्ति.
शुष्ककाष्ठानि सन्ति. अस्तु, शुष्ककाष्ठानि इत्युक्ते
स्माल् रूम्.
ड्रै,
शुष्क. ड्रै,
ड्रै. शुष्क मीन्स् ड्रै. काष्ठानि इत्युक्ते वुड् पीसस्. वुड्
firewood. Okay, dried firewood maybe.
Dried
wood. Yeah, yeah.
Dried firewood santi chadi. Chadi astu. Agree. Ketaki bagini. Agree.
Ashrame palanduhu उपयोगः निषिद्धः अस्ति. आश्रमे पलाण्डुः अस्ति. सो
ओकार भवति. सम्यक्, उकार अस्ति चेत् ओकारः भवति. ओकारः भवति. ओकारः वकारः. सम्यक्. पलाण्डोः. सम्यक्. पलाण्डोः एकवचने द्विवचने वकारः आगच्छति.
पलाण्डोः.
पलाण्डोः.
पलाण्डोः अने पलाण्डु नाम
बहुवचन. पलाण्डो
नाम पलाण्डूनाम्.
एकवचने ओकारः भवति, द्विवचने वकारः अपि आगच्छति. पलाण्डोः, पलाण्डवोः, पलाण्डूनाम्.
पलाण्डवोः, पलाण्डूनाम्.
अत्र पश्यतु, उकारः पलाण्डोः ओकारः वोकारः नाम इति भवति. पलाण्डोः, पलाण्डवोः, पलाण्डूनाम्.
पलाण्डूनाम्. यस्,
अस्तु, उत्तमम्. पलाण्डूनाम् उपयोगः निषिद्धः
अस्ति
इत्युक्ते किम्?
वाट् इस् द मीनिङ्ग् आफ् पलाण्डु?
पलाण्डु मीन्स् अनियन्. निषेधनं करोति. निषिद्धः अस्ति. पलाण्डोः उपयोगः, पलाण्डूनाम् उपयोगः
निषिद्धः अस्ति.
कुत्र? आश्रमे. सागरी भगिनि.
पशुः रक्षणम् अस्माकं कर्तव्यम् अस्ति. पशुः पशोः
पशोः द्विवचने एकवचने ओकारः द्विवचने
पशोः
सम्यक् पशोः पशोः पशूनां सम्यक्
इट् इस् आवर् ड्यूटि टु प्रोटेक्ट् एनिमल्स्
रक्षणम् अस्माः कर्तव्यम् अस्ति कर्तव्यं संथिङ्ग् वि शुड् डु
संथिङ्ग् लैक् अ ड्यूटि
ड्यूटि अस्माकं कर्तव्यम् अवर् ड्यूटि दिस् इस् वाट् वि शुड् डु पशूनां रक्षणम् अस्माकं कर्तव्यम् अस्ति अस्तु सम्यक् ऐ थिङ्क् आल् दि एनिमल्स् बिकास् विजयसे पशुपक्षि खलु पशुपक्षि It just means animals and birds, it is. Astu, agre? Savita Bhagini.
Mata Melanam, Mangalur Nagare, Prachalat.
So this is, Mata. Samyak. Matrunam Melanam.
Mangalore Nagare Prachalat.
Prachalat means it happened. So this is Bhutakala. This is a different Bhutakala we will learn next time.
Matuhu Matuhu Matruna. Mangalore Nagare Prachalat.
Samya. Matuhu Matruhu Matruna. Astu.
Matruna.
Puma Krishan Bhagini. कार्यकर्ता अपि ऋकारान्तपदम्
ऋकारान्तपदम्
पुल्लिङ्ग
कार्यकर्तुः
भगिनी सा एव करोतु
कार्यकर्तुः
बहुवचनं कार्य
वर्तते सम्यक्
कार्यकर्तुः कार्यकर्त्रौ
कर्त्रोः
कार्यकर्तॄणां
सम्यक् कर्तुः कर्त्रोः कर्तॄणां सम्यक् कर्तुः कर्त्रोः कर्तॄणाम् अस्तु उषा भगिनि
शिशुः शिशुः धेनुः
सम्यक् धेनुः इति स्त्रीलिङ्गपदं परन्तु अत्र शिशुः पुल्लिङ्गपदम्
What is Pumlingam like?
Guroho.
Okay, Shishoho. Shishvoho.
Samyak.
Shishunam.
Samyak. Shishoho, Shishvoho, Shishunam. Vakyam vadate idani?
Shishoho.
Bahuvachana. Bahuvachana.
Oh, Shishunam. मुग्धवचनेभ्यः मातरः सन्तुष्टाः जाताः
उत्तमं
सो मुग्धवचनेभ्यः मीन्स् स्वीट् वर्ड्स्
वाट्
इस् मुग्ध
वाट् सविता भगिनि
चैल्डिश् ब्लाबर्
चैल्ड् ब्लाबर् लैक्
ओटि सौण्ड्स् तोट्ला 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 टाक्स्
ओके
इन्फण्ट् मुग्धवचनेभ्यः वचनेभ्यः विभक्तिका वचनेभ्यः
चतुर्थी
अथवा
पञ्चमी
पञ्चमी सो अत्र अत्र पञ्चमी फ्रम् इति
ओके ओके सो पञ्चमी बहुवचनं
बहुवचनं मातरः अपि बहुवचनम् माता मातरौ मातरः अतः सन्तुष्टाः बहुवचनं, जाताः बहुवचनं स्त्रीलिङ्ग, सन्तुष्टाः जाताः इति. अस्तु परमेश्वर महोदय. दाता अपि ऋकारान्तपदम्. आवलि इत्युक्ते लिस्ट् धातुः धातुः सम्यक् धातुः धात्रोः धातॄणां धातॄणां सज्जीकृतवान्. हि गाट् इट् रेडि. अस्तु किञ्चित् कठिनमस्ति परन्तु अभ्यासेन एव वयं ज्ञातुं शक्नुमः सर्वम्. इदानीं सप्तमी विभक्ति प्रति गच्छामः वा? आम् सप्तमी विभक्ति. सप्तमी विभक्ति कुत्र उपयोगं कर्तुं शक्नुमः? आधारः प्रथम सोपानमस्ति. आधारः सर्वेषामपि वस्तूनां कोऽपि आधारः भवति एव. आधारः इत्युक्ते
सपोर्ट्.
सपोर्ट् इट् हेस् टु बी समवेर् लोकेशन् स्थानम् बेस् बट् वी केन् से सो मेनि थिङ्ग्स् ओके सपोर्ट् लोकेशन् इट् हेस् टु बि समवेर्
प्रूफ् प्रूफ् प्रूफ्
प्रूफ् या आधारः इङ्ग्लिश् प्रूफ् या आधारं सूचयतु. बट् हियर् इट् मीन्स् फिसिकल् संथिङ्ग् फिसिकल् प्लेस् ओके. अस्तु सो अत्र भवति यः आधारः भवति तस्य सप्तमी विभक्तिरूपं भवति. उदाहरणार्थं मम गृहे एकः शुनकः अस्ति. शुनकः कुत्र अस्ति? गृहे. कुत्र स्थानं किम्? आधारस्थानं किम्? सो आधारस्थानं किम् इति वयं जानीमः चेत् तस्य पदस्य सप्तमी विभक्तिरूपं भवति. उदाहरणम् अधः सूचितानाम् आधारभूतान् आधारभूतान् शब्दान् इत्युक्ते यस्य पदस्य आधारं सूचयामः यत् पदम् आधारं सूचयति तस्य पदस्य सप्तमीविभक्तिरूपं भवति. उदाहरणं बेङ्गलूरुनगरं जयनगरम् उद्यानं सस्यं फलं बीजानि सर्वाणि पदानि नपुंसकलिङ्गपदानि. बेङ्गलूरुनगरे जयनगरम् अस्ति. ओके बेङ्गलूरुनगरे जयनगरम् अस्ति इति उदाहरणम् अस्ति. अग्रे वयं किं रचनीयम्? जयनगरे उद्यानम् अस्ति. सम्यक् अग्रे
उद्याने पुष्पम् अस्ति.
उद्याने सस्यम् अस्ति पुष्पम् अस्ति. सम्यक्
पुष्पम् अस्ति.
अग्रे अन्य कोऽपि? सस्ये फलम् अस्ति. अस्तु
फले
बीजानि सन्ति. उत्तमं. यथा वयं वदामः भारतदेशे बेङ्गलूरुनगरम् अस्ति. बेङ्गलूरुनगरे जयनगरम् अस्ति. जयनगरे उद्यानम् अस्ति. उद्याने सस्यम् अस्ति. सस्ये फलम् अस्ति. फले बीजानि सन्ति.
तो भगिनी केन् इति बेङ्गलूरस्य बेङ्गलूरुनगरस्य जयनगरस्य उद्यानस्य सस्यस्य फलस्य
अन्ते फलस्य बीज न न इफ् यु इफ् यु यूस् षष्ठी विभक्ति देन् यु हेव् टु यूस् लैक् अन्तः आर् लैक् दट् अन्तः वामतः पृष्ठतः दोस् वर्ड्स् यु हेव् टु यूस् अथवा जस्ट् यूस् सप्तमी विभक्ति
ऐ थाट् देर् आर् इन् द फ्लवर्स् आफ् द बुशेस् आफ् द गार्डन् आफ् जयनगरम् आफ् बेङ्गलूर् देर् आर्
आमां सम्यक् सम्यक् सो वेन् यु से एव्रिथिङ्ग् अण्ड् देन् यु से फलस्य यु हेव् टु यूस् द वर्ड् अन्तः
ओ ओके ओके
अन्तः बीजानि सन्ति सो इन् सैड् रैट् सो अन्तः बीजानि सन्ति इफ् यु जस्ट् यूस् इन् देन् फले बेङ्गलूरुनगरे जयनगरे
भगिनी वोण्ट् इट् बि अन्तरम्
अन्तः अन्तः एव अन्तः बीजानि सन्ति सो वि केन् से भारतदेशस्य अन्तः बेङ्गलूरुनगरम् अस्ति बेङ्गलूरुनगरस्य अन्तः जयनगरम् अस्ति जयनगरस्य अन्तः उद्यानम् अस्ति उद्यानस्य अन्तः सस्यमस्ति सस्ये फलानि फलम् अस्ति फलस्य अन्तः बीजानि सन्ति सो दट् इस् अ बिग् आक्चुलि यु गाट् मी टु अ वेरि बिग् क्वश्चन् भगिनि सो अत्र यदा वयं कुत्र इति प्रश्नं पृच्छामः उत्तरत्रयम् आगच्छति सप्तमी सम्यक् एकमस्ति सप्तमी अन्यत् एकमस्ति षष्टि परन्तु कुत्र गच्छति इति अस्ति चेत् द्वितीया द्वितीया भवति सो अत्र सप्तमी साधारणतया ए अथवा यां भवति अन्ते खलु ए अथवा याम् उदाहरणतः उद्याने पुल्लिङ्ग नपुंसकलिङ्गे ए भवति उद्याने उद्यानम् उद्याने गृहं गृहे देशः देशे स्त्रीलिङ्गे याम् उद्यानम् अन्यपदम् अस्ति वाटिका वाटिकायां नदी नद्यां यां यां भवति षष्टि अस्ति चेत् स्य बट् इफ् यु यूस् षष्टि अन्यपदम् आवश्यकम् अन्तः वामतः दक्षिणतः सीता कुत्र अस्ति रामस्य वामतः रामः सीतायाः दक्षिणतः लैक् दट् सो षष्टि अस्ति चेत् अन्यपदम् आवश्यकम् सप्तमी अस्ति चेत् अन्यपदं न आवश्यकम् द्वितीया अस्ति चेत् मकारम् आवश्यकम् वाटिकां गच्छामि इति
भगिनी भगिनी श्वः वर्गे प्रयत्न करो
आमाम् अग्रिमवर्गे वयं प्रयत्नं कुर्मः निश्चयेन
कुर्मः त्रीणि विभक्ति
अस्तु अस्तु सम्यक् सम्यक् स्मारयतु रिमैण्ड् स्मारयतु अस्तु
आं भगिनि
अस्तु विरमाम शान्तिमन्त्रम् उक्त्वा समयः अतीतः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
धन्यवादः भगिनी
धन्यवादः
धन्यवादः
धन्यवादः धन्यवादः
धन्यवादः भगिनि.
धन्यवादः
भगिनि.
शुभदिनं.
शुभदिनं.
नमस्ते. रामस्य शुभदिनं भगिनि.
किं भगिनी?